ॐ श्री परमात्मने नमः। अथ षष्ठोऽध्यायः। श्री भगवान उवाच।
अनाशितः कर्मफलम् कार्यं कर्म करोति यः स संन्यासी च योगी च न निरग्निर्न चाप्रियः यं संन्यासमिति स्वनुषज्जते सर्वसंकल्पसन्न्यासी योगारूढस्तदोच्यते उद्धरेदात्मनात्मानं नात्मानमवसादये पुरात्मनः बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना चितः अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् बन्धुषु साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते योगी युञ्जीत सतत मात्मानं रहसि स्थितः नात्युच्छितं नातिनीचं
सुखमोत्तमम् उप
शांत रजसं ब्रह्म भूतम कल्मषम् युञ्जन्नेवं सदात्मानं योगी विगत कल्मष सुखे
नहि कल्याण प्रिय
शाश्वती समाः शुचीनां श्रीमताङ्गेः योगभ्रष्टोऽभिजायते अथवा योगिनामेव कुले भवति धीमताम् सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे आत्मसंयम योगो नाम षष्ठः।